आदित्यमृग चुषसोमनिधानकोशे बिम्बे निविष्टम् अधितिष्ठते पुरुषो यः येषातमेष एते साभिनया भवतम् भूताधिपत्यवचनेन शशंस नाम्ना उक्तो हिरण्यपतिरेष हिरण्यबहुः उक्त अम्बिकापतिर्वोमापतिर्एष उक्तः आहुर्भवन्तम् अदितैवतम् उष्णरश्मेः आतस्तदर्चन विधो भगवन्नभिज्ञाः यो मण्डलम् तपति यश्च तदन्तरात्मा याचानयोर्भवति भूतपते विभूतिः जानान एतत् अपि यत्फलम् अश्नोति च सर्वं यथावदिह तत्कथितं क्रमेण मा नाम भूत् अखिलम् अन्यदेवं प्रदेशम् अध्यापितास्तत्कीति मन्त्रविदो भवन्ति वाच्य किमस्य सविता सवितुर्वरेण्यः किं वा भवानि देवि तर्कपदं न भास्वन्तं येष विषये कुरुते न मन्त्रः शक्नोति वक्तुम् अधिदैवतम् ईश्वरं त्वाम् यस्मादयं त्वयि निरोहति भर्गशब्दः प्रज्ञा प्रचोदकतय तदधीयसे त्वम् करिपो यदि भर्गशब्दो यत्तत् पदद्वयमनन्वयि लिङ्गभेदात् अन्वेषयेत् उभयमन्यदभिन्नलिङ्गम् अश्रूयमाणमसमञ्जस एष पक्षः शब्दस्मृतिर्ह्यसु निवा गज्ञिवा पदान्ते युक्तं वदत्युभयथा स्वरमा द्युदातम् शान्तभावम् मैत्रायण श्रुतिरसो तदिते प्रकृत्य भर्गं भवन्तमभिधाय विचिन्तनीयम् रुद्रस्य भर्गपदगोचरतां ब्रुवाणा शान्तं प्रतिक्षिपति भर्गपदं पुरारे शान्तं पदं तदपि नैव ददाति वक्तुम् यद्ब्राह्मणं तलवकारिण आमनति प्रश्नोत्तर क्रमनिरूपित पूर्वपादम् पादं द्वितीयमपि भर्गमयं ब्रवीति भर्ग प्रचोदयति यो धियमस्मदीया तं धीमहेति घटना विनिमाय लिङ्गम् वाच्यस्य भर्ग भवत स्वपद अभिधानम् भर्गाख्यमित्यपि च साम्भव च अनुरोधः प्रतिपाद्यमर्थम् तत् अक्षरं तत् सवितुर्वरेण्यम् प्रज्ञा च तस्मात् प्रसृता पुराणी भार्गोऽपि सन् सवितृशब्दसमन्वयेन सावित्रतामपि विगाहत एव मन्त्रः तत्तत्पदान्वयवशेन महेश मन्त्रान्तद्देवतानपि हि मन्त्रविदः पठन्ति अप्यर्कदैवतवती मृच मामनामः शब्देन विश्व इति शङ्कर वैश्वदेवी पित्र्यां च मर्त इति पुष्यपदेन पौष्णीं एतादृशानि कति नाम निदर्शनानि एषा गतिश्रुतिगिराम् इति निर्णयेन तत्तद्ग्रहार्चनविधो मुनयस्मरन्ति मन्त्रेण शङ्कर शनेशमुपक्रमेण बुद्ध्यस्वशब्दसहितेन बुधस्य पूजा मन्त्रस्त्रिपाद यमदृष्टविधान्तरेण दृष्टश्चरा चर गुरु मनोना यथोक्तम्। सकलं हविस्ते राज्ञो बलिं हरतु भागदुद प्रजाभ्यः। पार्थेन शंकर निवेदितम् अम्बुजाक्षे नैशं हविस्फुटं अदृश्यत पादयोस्ते। त्वदर्थमनुशुश्रुम सूयमानम् आलम्भनम् पशुपते नियतम् पशुना गव्यं च ते गवि सदेव तदधरेषु चण्डेश्वरेण सह नाक सदां विवादः। शिव गृहीत समन्वयास्ते सोम पशुर्गवि च सन्ति हविंषितानि। देवा पशो हविषि भागम् अनोज्ञयाते गृह्णन्ति तद्वदित तेष्वपि कल्पने। कर्मैकमेव न परं पशुबन्धनं ते कर्तव्यमाहु उपलभ्य तवाभ्यनोज्ञा। सर्वेषु कर्मसु भवत्प्रसवेन पुंसा आरम्भणं प्रपद मन्त्रविदो गृणते। संकल्पत प्रभृति यज्ञतनुं विभज देवान् प्रजापति मुखान् प्रतिदर्शयन्तः। सोमाहुतिं हुतवहार्चिषि पूयमाना भा